गुरुमन्त्रः ॐ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानसुः परेण नाकं निहितं गुहायां बिभ्राच देदद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यदयच्छुद्धसत्त्वाः ते ब्रह्मलोके तु परा अन्तकाले परामृतात्परिमुच्यन्ति सर्वे दक्रं विपापं परमेश्वभूतम् यत्पुण्डरीकं पुरमद्य सग्रस्तम् तत्रापि दक्रं गहनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरप्रोक्तो वेदान्तेजप्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः।